प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। केन्द्रीय आयव्यय प्रपूरक संकल्पपत्रस्य उपरि ह्यः जायमानायां चर्चायां प्रतिभाग्यं गृह्णन् भाजपेति दलस्य जुगलकिशोरः उक्तवान् यत् संकल्पपत्रमिदं व्ययायकत्वेन महत्वधायकं तु भवत्येव सामाजिकदृष्ट्यापि महत्वपूर्णम् अस्तीति। अस्यां चर्चायां पंचायती राजमंत्री राजीव रंजन सिंहोपि भागम् अभजत् येन श्रीनरेन्द्र मोदिनः नेतृत्वधायिना प्रशासनेन उत्तमरीत्या कार्याचरणं क्रियते इति उक्तम्। अवसरेऽस्मिन् कंगना रनौतादयः नूतनाः सांसदाः अपि प्रातिभाग्यम् अकुर्वन्। राष्ट्रिय सुरक्षा परामर्शदः NSA अजीत डोबालः ह्यः आतंकवाद विरोधि कार्यम् अवरोधयितुं तदैव मादक द्रव्यस्य शस्त्रस्य च तस्करीं संगठित अपराधं च अवरोधयितुं चर्चां कृतवान्। म्यांमार देशस्य नेपिताव नगरे विम्टेक सम्मेलने भारतस्य राष्ट्रिय वक्तव्यं प्रदत्त्वा सः विम्टेक सम्पर्कः अन्यपत्तन सम्मेलनस्य आयोजनं हिमालयीय नदी प्रणाल्याः जलसुरक्षा इत्यादीन् विषयान् अपि सम्बोधितवान्। श्रीडोभालः भारतीय प्रतिनिधिमण्डलस्य नेतृत्वं बहुक्षेत्रीय तकनीकी आर्थिक सहाय कार्यार्थं बंगखात्याः परिकल्पना बिम्स्टेक सुरक्षा प्रमुखानां चतुर्थे वार्षिक सभायां कृतवान्। असमराज्यस्य मोइदम् समूहेन सांस्कृतिक श्रेण्यां 43वां प्रतिष्ठितः यूनेस्को विश्वरिक्थस्थलस्य मान्यता प्राप्ता। प्रायः 700 वर्षाणि यावत् पुरातनं मोइदम् इष्टकाणां पाषाणां च रिक्थकक्ष्याः सन्ति येषु राज्ञां राजपरिवाराणां च अवशेषाः सन्ति। मोइदम् इत्यस्य समावेशस्य निर्णयः सर्वसम्मत्या नवदिल्ल्याम् आयोजितेन विश्वरिक्थसमित्याः सत्रेण कृतः। राष्ट्रियपरीक्षाभिकरणेन NTA इत्यनेन राष्ट्रियपात्रतासहप्रवेशपरीक्षायाः संशोधितं नीट UG परीक्षायाः अन्तिमाङ्कतालिका ह्यः एव प्रकाशितम्। परीक्षायाम् उपस्थिताः अभ्यर्थिनः आधिकारिकसञ्जालपटलयोः exams.nta.ac.in अपि च neet.ntaonline.in इत्यत्र स्वीय परिणामान् अंकतालिकां च द्रष्टुं शक्नुवन्ति। अभिकरणेन घोषितं यत् 17 अभ्यर्थिनः शीर्षस्थानं सहैव भजन्ति। मध्यप्रदेश राज्ये राज्यारक्षी विभागे अग्निवीराणां कृते आरक्षणस्य व्यवस्था भविष्यति। कारगिल विजय दिवसस्य अवसरे मुख्यमंत्री मोहन यादवः ह्यः आभासीय माध्यमेन घोषितवान् यत् मध्यप्रदेश सर्वकारः आरक्षिविभागस्य भर्ती प्रक्रियायां अग्निवीराणां कृते आरक्षणं दास्यति। उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः अवदत् यत् अग्निवीराणां कृते आरक्षि तथा प्रान्तीय सशस्त्र कांस्टेबलरी बलेषु भर्ती प्रक्रियायाम् आरक्षणं प्रदीयते। अस्य वर्षस्य पेरिस ओलंपिक इति क्रीडाकुम्भः आधिकारिकतया ह्यः समारब्धम्। सायंकाले सेननद्याः समीपे उद्घाटनसमारोहः अभवत्। अस्मिन् वर्षे ओलंपिक क्रीडाकुम्भस्य शतवार्षिकोत्सवः भवति। ततः पूर्वं भारतेन परह्यः एव पेरिस ओलंपिक इति क्रीडाकुम्भाभियानस्य आरम्भः साफल्येन कृतः, यत्र पुरुषदलेन तृतीयस्थानं प्राप्तं, महिलादलेन च क्रमाङ्कनपरिक्रमे एव चतुर्थं स्थानं प्राप्य प्रागुपान्त्यचक्रे प्रविष्टिं प्राप्ता। इति वार्ताः।